सेप्टेम्बर् मासस्य षष्ठः दिनाङ्कः तेनाक्षरसमाह्नायमधिगम्यमहेश्वरात्मस्यं व्याकरणं प्रोक्तं तस्मै पाणिनीये नमः त्वक्षकारम्बररचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रधारं च प्रणतोऽस्मिं त्रयम् ध्यायन् ध्यायन् परं ब्रह्मस्मारं स्मारं गुरोर्गिरः सिद्धान्तकौमुदी व्याख्यां कुर्मः प्रोढमनोरम. A couple of people asked for a recap of a few concepts of Kamsanti Prakaran. So I thought today we will just revise a couple of things from Kamsanti Prakaran before we move on to the Sarvasanti. We come to Khyaya Desha Vishaye Atavaram Punaha Vishatamiti. Kumakhriyam Pare सूत्रमस्ति सञ्जीव प्रकरणे. अम्परे खै ऊं शब्दस्य रुः स्यात् इति सूत्रार्थः सिद्धान्तकौमुद्याम्. पुंसः संयोगान्तरूपे कृते अवशिष्टभागस्य अनुकरणं. पुंस् इत्यस्ति संयोगान्तस्य रूपः. सुप्रत्यये संयोगान्तस्य लोपः इत्यनेन सकारस्य लोपे अनुस्वारस्य मकारत्वं सम्पद्यते. सूत्रे परे वर्गाणां प्रथमद्वितीययोः वर्णयोः परयोः अम्परे खै खैवर्णानन्तरम् अम् वर्णः भवेत्. अम् इति पुनः प्रत्याहारः अकारादारभ्य न्यामाङ्गणम् इति मकारपर्यन्तम् तथा सति अवित्वम् भवति. उदाहरणमस्ति पुंस् कोकिलः इति. पुमान् कोकिलः इति समासः. तत्र पुम् कोकिलः दृश्यते. ककारः खैवर्णः तत्परत्वेन ओकारः सः अम् वर्णः. अम्परेखै पुम् इत्यत्र मकारस्य ऋत्वम् पुर् कोकिलः. अत्र अनुनासिकः पूर्वस्य तु वा इत्यनेन विकल्पेन अनुनासिकः. अनुनासिकात् परो अनुस्वारः इत्यनेन अनुस्वारागमः. पुर् पुमृ इत्यस्ति. ततः ऋत्वस्रेफस्य विसर्गः विसर्जनीयस्य सः पुंस् कोकिलः पुंस् कोकिलः इति रूपद्वयं सिद्ध्यति. तत्र वार्तिकमस्ति ख्यायादेशे न. चक्षिणः ख्याय् इति सूत्रमस्ति द्वितीयाध्याये चतुर्थपादे. चक्षिङ् इति धातुः. चक्षिङ् युक्तायां वाचि चष्टे चक्षाते चक्षते इत्यादीनि रूपाणि सिद्ध्यन्ति. चष्टे इति वदति इत्यर्थे चष्टे. विशिष्य आचष्टे आचक्षते इत्यादीनि रूपाणि प्रसिद्धानि. तत्र अर्धधातुकाधिकारे चक्षिणः ख्याय् अर्धधातुके प्रत्यये पदे चक्ष् धातोः ख्याय् इति आदेशः विधीयते. यत्र चक्षिणः ख्यायादेशः कृतः तत्र ख्यायादेशे खकारः खै वर्णः खकारोत्तरः यकारः अम्वर्णे अन्तर्भवति. अतः पुमःखयम् पदे इत्यनेन ऋत्वे प्राप्ते ख्यायादेशे न भवति इति वार्तिकेन निषिध्यते. एतद्वार्तिकम् अपूर्वम् किमपि वदति वा इति प्रश्नः. वार्तिका रियली रिक्वायर्ड् so Vichita says it is not required as a, I mean it does not say something new. Kimattham Adesho hi upadeshe kshadihi asiddha prakarane natvanantaram kshayaha shasya yatvam vikantate. So he says actually the Adesha is not kshay, it is kshay. Khataraha talavya shakaraha. महाभाष्ये एव क्षान्यः शस्य योः इति वाक्यं दृश्यते असिद्धप्रकरणे नत्वानन्तरं ऋषाभ्यां नोणसमानपदे इति अष्टमाध्याये चतुर्थपादे नत्वप्रकरणमस्ति. तत्र नत्वप्रकरण गोस् आन् फार् क्वैट् सम् सूत्रास् सम् 38 सूत्रास् सम्थिङ्ग् इन् पाद 8-4 प्रायः अष्टात्रिंशत् अथवा ऊनचत्वारिंशत् सूत्राणि नत्वप्रकरणस्य. नत्वप्रकरणानन्तरं क्षायः यस्य यो वा इति उच्यते. वस्तुतः आदेशः क्षादिः. तत्र असिद्धप्रकरणे षकारस्य स्थाने यकारादेशः विकल्पेन विधीयते इति उच्यते. किं कारणं वै तु designate the adesha as kshadi question. So the Bhashyakara lists a series of karanas. What are the purposes of making it talavishakara and putting it in the asiddha karana? Ekam tosti tena suprakhyena nirvruttam sauprakhyam tatra bhavaha sauprakhyaha. Sauprakhyaha iti rupam sadhaniyam. सुप्रख्य इत्यस्ति. प्रख्य इत्यत्र प्रकृष्टम् आचष्टे इत्यर्थे चक्षु धातुः. तस्य ख्या आदेशः कृतः अस्ति. सुप्रख्यः इति कस्यचित् नाम. सुप्र इति उपसर्गद्वयपूर्वकः चक्षु धातुः. तस्य ख्यायादेशः कृतः. सुप्रख्येन निर्वृत्तम् केन कृतम्? सौप्रख्यम् तत्र भवः सौप्रच्छीयः इति तद्धितरूपं साधनीयम्. तत्र यदि ख्यायि इत्येव आदेशः. इत् आदेश ओरिजिनली हेज् यकार. धन्वयोपधाद् उन् उञ् इति सूत्रेण उञ् प्रत्ययः प्राप्नोति. दिस् इस् योपध. सौप्रख्य इत्यत्र यकारः उपधायाम् अस्ति. धन्वयोपधात् यत्र यकारः उपधायां दृश्यते तत्र उञ् इति विशिष्टः प्रत्ययः विधीयते. इफ् वि हेव् उञ् द फार्म् विल् नाट् बि सौप्रक्षीय. बिकास् उञ् उञ् इत्यत्र योरनाकौ इत्यनेन अन इति आदेशः भवति. अतः भिन्नः एव किञ्चित् रूपं सिद्ध्यति, न तु सौप्रक्षीयः इति. सो वाट् इस् डन् टु प्रिवेण्ट् दिस् उञ् इस् The Adesha is given as Kshadi. Tatra Talabhi Shakarah Asti. Shakarasya Yattam Vidhiyate Shayashasya Yova Ittyanena. Itad Vartikam Na Mahabhashyameva Bhashyastam Vakyam. This is not a Vartika. This is a Vakya in the Mahabhashya where the Bhashyakara gives Yakara for Shakara. This being in the Asiddha Kanda. सिद्ध प्रकरणे नत्वानन्तरमेव यत्त्वं विधीयते इत्यतः यत्त्वम् असिद्धम्. सो धन्वयोपधात् इति सूत्रं प्रति यत्त्वम् असिद्धम्. एतस्य असिद्धत्वे एतत् सूत्रदृष्ट्या अत्र शकारः एव अस्ति. सो दिस् सूत्र विल् सी द शकार क्ष हियर्. Since the condition there is no yopadha, this sutra will not apply. Sasya bhave vriddhakshaha ityanena cha pratyayaha. Because it is sauprakhya. Okay. So there is a vriddha. Vriddha is a vriddhi letter at the beginning. So because of that you have kha. Kha ityasya अयनेयिनीयः फढ ख छ घ प्रत्ययादीनाम् इत्यनेन ईय इति आदेशः सौप्रख्या ईय सौप्रक्षीय इति रूपं सिद्ध्यति. सो या दिस् क्वेश्चन् ऐ एम् आल्सो हेव् अ डौट् अबौट् दिस् बीङ्ग् 8-121. As far as I know, this is a tadhita sutra, so this is probably 5. I will check the sutra number and let you know. Because first of all, the Dvitiya Pada of the Ashtamadhyaya does not have over 100 sutras. And anyway, this sutra being Tarkhita, it should probably be in the 5th chapter or the 4th. So this number is probably either 4-2 or 5-2. I'll let you keep this. Prashna Hastina, what's your question?
No, I just wanted to know whether it was a Vartika. You already told it is Bhashya.
Yeah, it is not a Vartika, it's a Bhashya Vartika.
And the number is 4-2-121.
4-2, yeah, that's what I thought. I okay. That makes sense because, yeah, because it is a Tadhita is always 4 or 5. So 4-2-121, I'll change the sutra number. Yatasya asiddhatvat dhanvayopadhat iti mi na ityadi prayojanani akare sthitani akaram nam bhashyam kayata bhashya kayata yohu akaraha iti nam asti. So because of shatva and because shakara yatva is asiddha, one of the purposes of that is to prevent the wound by dhanvayopadhat. So other purpose is also to prevent this rutva. Because if there is shakara, shai iti yadi talavi shakara hasti, tarhi asaha amvarnaha na. Amparakatva bhavata umakriyam pare ityanena rutvam na bhavati. So because it is shadi, there is no rutva. There is no need of a new vartika. Shaya deshe na iti apurvasya vartikasya avashyakata nasti upa chaya deshasya kshaditva deva rutvavaranam siddhati iti dikshitanam abhipraya. That is why he says adesho hi upadeshe kshadihi tasya anyanyapi prayojanani santi evam cha yatvasya asiddhataya amparatva bhavat amvarana nasti ityateva umakhayi iti rutvam na ityarthaha. Tasya udaharanam asti pumkshanam lyut yuvaranakau ityanena ana. Lyut iti ardhadhatuka pratyayaha. Ardhadhatuke chakshinaha kshay iti adeshaha. Chakarase yatve kshanam iti rupam. Pum ityatra kshana shabde pare rutvam na bhavati amparakatva bhava. Pumkshanam iti chakshingaha lyut shayadeshaha. So that is all about the vartika. The vartika is not an apurva vartika. That is, it does not state something new. It is just recollecting the fact that because the adesha is shadi, we will not have this sutra operating. Nanu adeshaha iha durlabhaha. So next there is another question raising. Chaksh dhatohu yuta prateye krite chay iti adeshaha bhavativa iti prashnaha. Will we have the chay adesha at all here is a question. Nanu adesha iha durlabhaha vajjane pratishedhaha as anayoshcha iti vaktika. As an ana iti ayamai malyut pratyayaha. Yut pratyaye pare adeshaha patishidhyate. Yuvartham vichakshanaha iti rupamasti. Yut pratyaye krute vi upasarga purvakatu. Chakshadhatoho yut pratyaye krute vichakshanaha iti rupam prasiddhamasti. Panditaha ityarthe vichakshana shaktaha asti. Tatra ardhadhatukaha pratyayaha tathapi chakshinaha shayadeshaha na drishyate. There is no adesha. That is why an vartika says as anayohu. As pratyaye anapratyaye paresha shayadeshaha na bhavati iti vartikamasti. Tadhi tathavatra shayadeshaha iti prasna. Svatrapi chakshanaha ityeva rupam syat katham khyanam. Adeshaha katham bhavati iti prasna. Tatra uchyate satyam bahulam tani anna vadhaka gatra vichakshana ajiradyartham iti vartike bahula grahanat samadheyam. So there are many such cases where we find Adeshas being there or being not there in particular places. So there is a general Vartika which says Bahulam Tani. Tani nama Samyachanda Soho. Samyayam Vedecha Sarve Adeshaha Vikalpyante. Bahulam Bahulagrahanam nama Kvasit Pravrattihi Kvasit Apravrattihi Kvasit Vibhasha Kvasit Amyadeva. अतः सम्यायाम छंदसि च सर्वे आदेशाः अर्धधातुकाधिकारे बहूनां धातूनां भिन्नाः आदेशाः विधीयन्ते. अदोदग्धिर्लप्तिति हनोवधः विनोगा दक्षिणः ख्याय अजेर्वि. सो दैट इज अ सीरीज ऑफ आदेशस. इफ यू ओपन अष्टाध्यायी एंड लुक एट इट, इट इज अ सीरीज ऑफ धात्वादेशस इन अर्धधातुकस. Or in particular Ardha Dhatukas, there are many Dhatus which get particular Adeshas. Okay. Ad Dhatoho Jagdhi iti Adeshah Kriyate, Hana Dhatoho Vadhadeshah, Ina Dhatoho Ga, Chakshi Dhatoho Khyai, Ajehevi Ityalayaha Bahavaha Adeshah, Sarvepe Adeshah Vikalpyante Bahulagrahanat Ityasti. Yatha Bahulam Tani Anna Ad Dhatoho ख्तप्रत्यये जग्धादेशः न दृश्यते. अन्नम् इत्येव रूपं जग्धादेशः जग्धि इति आदेशः न कृतः. वधक इत्यस्ति, तत्र हनधातोः वधादेशः कृतः अस्ति विकल्पाभावे निमित्ताभावे अपि. हनोवधलिनि इति सूत्रम्. सो वधादेश इस् गिवन् इन् लिङ् आर् इन् लुङ्. हनोवध लुङि ऐ थिङ्क्. सो इन् अ पर्टिक्युलर् लकार. So even in the absence of that lakara, you find the vadhadesha. Evam gatram ityasti in ityatra gaadeshah krataha. Vichakshana chakshinaha khyayadeshah na krataha. Ajira ityatra ajadhatohu viyadeshah na krataha. So in some cases, even in the presence of nimitta, we don't find the adesha. In some cases, even without the particular nimitta, we find the adesha. So as a general rule, the Vartika says Bahulam Tani. There is Bahula Grahana. So wherever we find Prayoga, there is the Adesha. Prayoga Bhave Adesha Nasti. Tathaiva Atrapi Chakshidhatoho Vishaye Vichakshanaha Iti Rupe Khyayadeshaha Na Bhavati. Kevalam Khyanam Vi Iti Upasargaha Yatra Nasti Tatra Adeshaha Bhavati. ननु आदेशः दुर्लभः असनयोस्य इति वार्तिकादिति चेत् सत्यम्. बहुलं तणि इति वार्तिके बहुलग्रहणात् समाधेयम्. अतः चक्षुधातोः ख्यायादेशः भवति, आदेशे कृते ऋत्वं तु न भवति इत्यर्थः. तथा च ख्यादित्वप्रयोजनगणनवार्तिकम् So there is a Vartika which lists out the Prayojana of the Adesha being Kshadi and not Kshadi. Why to make it a Kshadi Adesha and then convert it into a Yakara? So there are many Prayojanas listed. The first one was Saupachiya, okay, to prevent Uni. So Ruvidhihi, Rutvam na Bhavet, Tasya Prayojanamasti Tum Kshadam. Naktvam, Naktvasyapi Varanam, Paryakhyanam, Pari Akhyanam, Pari Ittitra Rekhaha, Nishtha Naktvam Asti, Atra Nakarasya, Madhye At Kup Vangnum Vyavaya Asti, Ataha Naktvam Syat, Kintu Yadi Adeshaha Kshadihi, Tarhi Talavya Shakaraha Asti, Talavya Shakaraha At Kup Vangnum, Teteshu Na Antar Bhavati, Ataha Naktvam Nivaryate. नत्ववारणमपि क्षादित्वस्य प्रयोजनम्. इष्ठानत्वम् आख्यातम्. सो अगेन् देर् इस् अ नकार फार् संयोगादे रातो धातो यण्वतः. यत्र यण् अस्ति यण्वतः धातोः निष्ठा अकारस्य नत्वं विधीयते, तदपि न भवति. सो निष्ठानत्वम् आख्यातम् इति शकारेण व्यवधानात् कृत्यजः इति नत्वं न पर्याख्यानम् इत्यत्र, तथा आख्यातमित्यत्र Sayogade Adorato Yenvataha Itinatumna Yatvasya Sidhya Yenvata Viraha. So Kshatam Itiyasti Tahi Yen Varnahanasi Tatanatum Nabhati. Evamcha Madhyakya Iti Sutre Kyagrahanam Nakartavyam Iti Bhavaha. So because of the Kshaditva, there are many prayojanas which are being achieved. So Saukrachiyaha Iti Ekam Unkhyanam, Pariyakhyanam, Akhyatam. Iti Chattvari Rupani Chyayadeshasya Kshavitvat Siddhyanti. Tena Kim Bhavati Unkhyanam Iti Sadhaitum Chyayadeshena Iti Vishishtam Vartikam Na Karaniyam Tathiva Na Dhyakhya Prumukshi Madam Iti Sutram Asti Nishthanatvasya Nishedha Sutram. Okay, this sutra prevents natva in nishtha. Tatra khyagrahanam na kartavyam. Khyayaha khyadipvadeva nishthanatvam varyate. Because there is no prapti. Yanvatta viraha nishthanatvam na bhavati. Ataha vishishya nadhyakhya iti sutre khyagrahanam na kartavyam. Evam cha nadhyakhya iti sutre khyagrahanam na kartavyam iti bhavaha. Clear so far? Any questions? Please excuse me just one moment, I'll be back. So the argument now stands at Kshayadeshaha Kshadihi Kshaditvata Ruttvam Nabhavati Uni Pratyaha Nabhavati Krityataha Iti Natvam Nabhavati Nishtha Natvam Api Nabhavati Iti Prayosanani Uttam Anena Iva Siddhyati Ityataha Nadhyakhya Iti Sutre Khyagrahanam Na Kartavyam. तत्र एकः प्रश्नः उदेति. लख्याख्या इति सूत्रे ख्या इति उच्यते. ख्या इत्यस्य इत्यस्मात् परस्य निष्ठा तस्य नत्वं न भवति इत्यर्थः. दक्षिणः ख्याय इति यः ख्याय आदेशः सः ख्यादिः, अतः तस्मात् परस्य निष्ठा निष्ठा तकारस्य नत्वं न भवति. तदर्थं सूत्रे ख्याग्रहणं नावश्यकम्, तत्तु सत्यम्. किन्तु ख्या प्रकथने इत्येव धातुः अस्ति. सुख्या चक्षिणः ख्यायादेशः इति एकः चक्षुधातोः ख्यायादेशः. ख्या प्रकथने इति स्वतन्त्रः कश्चन धातुः अस्ति. ख्याति ख्यातः ख्यान्ति इत्यादि द्वितीयगणे अस्ति सः धातुः. ख्या धातोः परस्य निष्ठातकारस्य णत्ववारणार्थं सूत्रे ख्याग्रहणम् आवश्यकं किल इति प्रश्नः. ख्यायादेशस्य ख्यादित्वात् तस्मात् परस्य णत्वे वारिते अपि स्वतन्त्रः यः ख्या धातुः तस्मात् परस्य निष्ठातस्य णत्ववारणार्थं सूत्रे ख्याग्रहणम् आवश्यकम् इति एकः आक्षेपः. न च ख्या प्रकथने इत्येतदर्थं तत् तत् नाम सूत्रे ख्याग्रहणम्. ख्या प्रकथने इति स्वतन्त्रस्य धातोः विषये निष्ठा तस्य नत्ववारणार्थम् इति यदि उच्यते तदपि न वाच्यम्. किमर्थम्? तस्य सार्वधातुकमात्रविषयत्वात्. ख्या प्रकथने इति यः स्वतन्त्रः धातुः तस्य सार्वधातुके एव प्रयोगः, आर्धधातुकेषु तस्य प्रयोगः नास्ति. We find such things in a few rare dhatus. There are some dhatus which are used only in sarvadhatukas. Ardhadhatukeshu prayogah na drishyate. So, khyadhatuhu tadrishah, sarvadhatuka matra vishayah, sarvadhatuke eva tasya prayogah, ardhadhatuke khyadhatuhu svatantrasya prayogah nasti. Daprateyah ardhadhatukah. Ataha, स्वतन्त्रात् ख्याधातोः निष्ठाप्रत्ययस्य सम्भवः एव नास्ति. तस्य सार्वधातुकमात्रविषयत्वात् सिन्स् द स्वतन्त्रधातु इस् यूस्ड् ओन्ली इन् केस् आफ् सार्वधातुकास् देर् इस् नो पासिबिलिटि आफ् फैण्डिङ्ग् निष्ठातकार आफ्टर् द इण्डिपेण्डेण्ट् धातु. इट् केन् बि फौण्ड् ओन्ली आफ्टर् द ख्यायादेश एण्ड् फार् दट् ख्याग्रहणं नापेक्ष्यते. ख्या प्रकथने इति धातोः सार्वधातुकमात्रविषयत्वे किं प्रमाणम्? हौ डु वि नो दट् ख्या धातु इस् यूस्ड् ओन्ली इन् सार्वधातुकास्? अत्र च स्वस्थानत्वं नमः ख्यात्रे इति उत्तरवार्तिकं प्रमाणम्. तत्रैव एकं वार्तिकमस्ति, स्वस्थानत्वं नमः ख्यात्रे. अत्र नाम ख्यायादेशस्य ख्यादित्वप्रयोजने हि हेस् बीन् लिस्टिङ्ग् द प्रयोजनास् आफ् ख्यादित्वारे. सो मुञ् प्रत्ययः न भवति, ऋत्वं न भवति, णत्वं न भवति, निष्ठानत्वं न भवति. अग्रिमवार्तिकमस्ति स्वस्थानत्वम्. स्वस्थानत्वं नाम विश्वामूलीय. स्वस्थान इति विश्वामूलीयस्य प्राचां संज्ञा. विश्वामूलीयः अपि न भवति. कुत्र? नमः ख्यात्रे इति उदाहरणं दीयते अग्रिमवार्तिके. नमः ख्यात्रे इत्यस्ति. तत्र कुप्पोकः कौच इत्यनेन विश्वामूलीयः भवति वा इति प्रश्नः. यथा रामः खनति इत्यत्र विश्वामूलीयः भवति, तथा नमः ख्यात्रे इत्यत्र विश्वामूलीयः भवति वा इति प्रश्ने न भवति. कुतो न भवति? आदेशः क्षादिः. खकारः खकारोत्तरः षकारः. यदि षकारः अस्ति शर्परे विसर्जनीयः इति सूत्रमस्ति. शर्परे खरि विसर्जनीयस्य विसर्ग एव भवति. यथा क्षौम, वासः क्षौमम्. यत्र क्षकारः अस्ति क्षमः क्षामसमीरणः. शर्परे खै वेन् देर् इस् अ खै वर्ण फालोड् बै ए शर् वर्ण देर् इस् नो आदेश पदविसर्ग. Visarga will remain as Visarga. Atayeva kshamaha kshamaha. Yatra agre ksha karaha asti. Tatra visargaha visargatvena eva uchyate natu vishvamudiyatvena. Eva matrapi namaha kshatre. Namaha kshatre. Adeshaha kshadihi. Ataha tatra shakaraha asti shakaraha sharvarnaha. Sharparekhai visarganiyasya visarga eva bhavati iti uktatvat tatra vishvamuriyaha na bhavati etadapi kshadittvasya prayojanam sasthanatvam namaha kshatre sasthana iti vishvamuriyasya pracham samya sa iha na sharpare visarganiyaha ityasya pravrttehe etad sutra drishtya sharpare visarganiyaha is 8-3 Whereas the yatva adesha is given only in 8-4. So, yatvasya siddhatvat, atra sharpare visarjaniyaha ityeva pravartate, vishvamuniyaha na bhavati. Yadito svatantropi dhatuhu ardhadhatuke ishyeta. If the independent khyadhatu were used in ardhadhatuka, khyata iti ardhadhatuka pratyayaha. Okay? Trich Prateha, Nol Trichov Ityanena, Khyatru Iti Pratpalikam. Yadi Svatantropi Dhatuhu Ardhadhatuke Ishyeta, Tada Jishvamuli Yasya Durvarataya. If the independent Dhatu were used in Ardhadhatukas, then in Khyatru, you cannot prevent Jishvamuliya. Because it is an independent Dhatu, there is no Kshadi, so then there would have been Jishvamuliya. Yadi svatantropi dhatuhu ardhadhatuke ishyeta, tada vishvamuliyasya durvarataya idam vartikam asangatam cha. Because even if you prevent the vishvamuliya in case of the khyayadesha, svatantrasya dhatuhu trichpratyayante pare vishvamuliyaham bhavatyeva, ataha idam vartikam asangatam cha. Tenaiva jnayate svatantraha dhatuhu saladhatuka matra vishayaha, Yakshinaha Khyaya Deshaha Ardhadhatuka Matra Vishayaha Iti. Clear so far? Any questions? So, the Siddhanta so far is Prashna
Hastiva. Yeah, Chaya Desha is Adhadhatuka Matra Visheva, Adhadhatuka Abhib Avatiwa. Chaya Desha.
That is Adhesha Adhadhatuka Adhikare Eva Vithiyate. Adhadhatuka Eva Chachina Chaya Desha.
Okay.
Because the sutra itself is in the artha dhatuka. No, in the sarva dhatuka you have the dhatu itself. Chashte chakshate chakshate.
Like
prakatane. Chakshing yaktayam vachiti dhatu.
Okay.
There are two different dhatus. One is chakshu and kya. So both dhatus are formed in sarva dhatuka. Chakshing dhatu ho, chashte chakshate chakshate iti rupani. Kya dhatu ho, khyati khyata khyanti ityari rupani. Ardhadhatuke khyadhatoho prayogaha nasti, chakshadhatoho khyay adesha vidhiyate.
Yeah. Yes. Now it's clear.
Yeah. So now, haradattaha kimbadati, khya prakathane iti yaha dhatuhu, saha api khyadihi. Yattu haradatta madhavadibhihi uktam, khyadhatur api khyadihi, yattva vidhihi api ubhayasadharanaha iti. So they say, whether it is the khyaya adesha or the khyaya prakathane dhatu, both of them are kshadi. Upadeshe ubhayoho kshaditvamasti, yatva vidhihi api ubhayasadharanaha. Khyayaha shasyayova iti yatvam yadvidhiyate, tadapi ubhayoho bhavati, satandasya dhatora api bhavati, adeshasya api bhavati. iti Haradattaha Madhavaha Ityadayaha Vadanti. That Chintyam. So Dikshita does not feel that is appropriate. Why? Bhashye Chakshinaha Eva Upakramat. The first thing in the Bhashya, the Bhashyakara is speaking only about the Chakshin Dhatu and not about the Khyan Dhatu. Chakshinaha Eva Upakramat. Dvitiyam tu Sarvadhatuke Api Kshadi Prayoga Patte Hai. If the Dhatu is also Kshadi, Kshayaha Shasya Yatvam Vikalpena Eva Vidhiyate. The Yatva is Vikalpa, which means that there is both Shakara and Yakara which is seen in the form. Okay. Kshaditva Prayogaha Ardha Dhatukeshu Eva Drishyate, Sarvadhatuke Na Drishyate. Yati kya iti dhatuhu api kshadihi iti angi kriyata, tarhi sarvadhatuke api kshadi prayoga patte hai. So we should see the prayoga of the shakara, which is not seen in sarvadhatuka. So because of both these reasons, it is not acceptable that the svatantra dhatu is also kshadi. Nata ishtapattihi. Madhavena ardhadhatukeshu eva ayam kshadihi iti uktatvat. Sarvadhatuke anabhidhana seva sharani kartavya patya gauravatvastatvacha. So, we do not want shadi in sarvadhatuka. Because Madhava himself has said that ardhadhatukeshu eva ayam shadihi. Shakarasya prayogaha ardhadhatukeshu eva drishyate iti madhavena eva uchyate. Yadi svatantraha dhatu api shadihi, tarhi sarvadhatuke shakarasya anabhidhanam. Shakara yuktasya prayogasya anabhidhanam iti vaktavyam bhavati tatcha gauravam. Anabhidhana is a prayoga which we use sometimes. Even if the rules apply, we don't see the prayoga, we say anabhidhanam. Anabhidhanam nama shishtaihi na prayuktam ataha prayogaha nasti itteva uchyate. So that is not a technique which is, you know, always used. So because of all these reasons, kya iti svasantraha yaha dhatuhu sakshadihi iti angi kartum na shakyate. Okay. So the final conclusion is kya prakathane iti svatantraha dhatuhu sakshadihi. So it originally has yakara tasya sarvadhatukeshu eva prayogaha. Chakshing ityasya yaha khyai adeshaha vidhiyate sakshadihi tasya ardhadhatukeshu eva prayogaha. Kshaditvasya prayojanani Sauprakshiyaha ityatra Ui pratyasya nivaranam Uchyanam ityasya rutvavaranam Paryakhyanam ityatra natvavaranam Akhyatam ityatra nishtha natvasya varanam Namahakhyate ityatra Vishwamuniyasya varanam Evam pancha prayojanani kshaditvasya. Okay. So, iti astam tavatu. Syadetatu. Now, there is one more question he raises. Bahavaha pumam saha asmin kule bahupum khyati ityatra rutvam syat. Now, if we accept that the dhatu, svatantraha dhatuhu yadi kshadihi na, if the svatantra dhatu is not accepted to be kshadi, then if followed by the svatantra dhatuhu prayoge rutvam bhavativa iti prashnaha, yatha bahavaha pumam saha asmin kule bahupum yasti. Bahupum ityeva pratipadikam. Tasmat khyati. Khyati iti latlakaraha. Latlakaraha sarvadhatukaha. So khyati ityetat svatantrasya khyadhatoho rupam. Okay. So khyati is the khya prakathane dhatu. Since we have just now declared that the svatantra dhatu is not khyadi, tasmin pare rutvam bhavati va iti prashnaha. Yadi svatantrasya dhatoho kshaditvam na angi kriyate, tarhi bahupum kshati ityatra rutvam syat. Because this is not kshadi, we cannot prevent rutva. पुमस्थैयम् परे इत्यनेन रुत्वम् भवति. पुरः प्रभृतिषु पुं शब्दस्य एकाचनान्तस्यैव पाठात् न इह कप्. सो दिस् इस् अ डिफरेण्ट् टाञ्जेन्शियल् क्वश्चन्. जनरली इन् बहुव्रीहि वि हेव् अ कप् एस् अ समासान्त. ओके, सो लैक् वि हेव् से बहुपुंस्क शुड् हेव् बीन् द रूप. सो दट् विल् हेपन् ओन्ली इफ् इट् इस् एकवचनान्त. पुरः प्रभृतिषु कप् इति सूत्रमस्ति, तत्र पुं शब्दस्य एकवचनान्तस्यैव पाठात् वीरः पुमान् यस्य तत् वीरपुंस्कम् इत्यादिषु एकवचनान्तेषु कप् प्रत्ययः भवति. बहवः पुमांसः इत्यत्र कप् प्रत्ययः नास्ति. बहुपुम् इत्येव रूपम्. बहुपुं ख्याति इत्यत्र रुत्वं स्यात्. सार्वधातुके ख्यातेः प्रयोगः निर्बाध एव इति चेत् इष्टापत्तिः. यस्, इफ् इट् इस् द स्वतन्त्र ख्याधातु वी डू हाव् रुत्व. बहुपुंस्ख्याति इति रूपं भवति. यत्र ख्यायादेशः तत्रैव रुत्वस्य निषेधः तस्य ख्यादित्वात्. बहवः पुमांसः अस्मिन् कुले बहुपुंख्याति इत्यत्र रुत्वं स्यात् इष्टापत्तिः. इष्टापत्तिः मीन्स् यस् इट् इस् एक्सेप्टेड्. द रुत्व इन् दिस् केस् ईस् एक्सेप्टेड्. संहितायाः विवक्षायां तु रुत्वं न इति स्पष्टमेव. सो इफ् दर् इस् संहिता दर् इस् रुत्व. इफ् दर् इस् नो संहिता दर् इस् नो रुत्व. बिकास् द रुत्व इस् आल् इन् अण्डर् द संहिताधिकार. यत्तु प्राच ख्याधातौ नेति केचित् इत्युक्तम्, तत्र यदि ख्यायादेशे इत्यर्थः तर्हि केचित् इति अनुचितम्. नौ द प्रीवियस् वित् रिगार्ड् टु दिस् वार्तिका सिद्धान्तकौमुद्यां किमुच्यते ख्यायादेशे न. सो इस् वेरि क्लियर्. यत्र ख्याय् आदेशः अस्ति तत्र रुत्वं न भवति. स्वतन्त्रस्य धातोः प्रयोगे भवति. प्राच नाम अन्यत्र प्रायः प्रत्ययकौमुद्यां किमुक्तं ख्याधातौ नेति केचित् उपखय्यं परे इति रुत्वम् उक्त्वा ख्याधातौ नेति केचित् इति उच्यते. तत्र यदि ख्यायादेशे इत्यर्थः. सो इफ् हिस् इण्टेन्शन् वास् टु से ख्यायादेशे रुत्वं न भवति इति अर्थः, तर्हि केचित् इति अनुचितम्. ख्यायादेशे कृते सर्वेषां मते रुत्वं न भवति. केचित् इति न वक्तव्यम्. स्वतन्त्रे धातौ चेत् तर्हि सार्वधातुकविषयेऽपि निषेधः स्यात्, न च इष्टापत्तिः निर्मूलत्वात्. इफ् यु मीन्स् टु से ख्या इति स्वतन्त्रधातोः प्रयोगे रुत्वं न भवति इति यदि तस्य विवक्षा, तर्हि निर्मूलत्वम्. स्वतन्त्रस्य धातोः प्रयोगे रुत्वं न भवति इति वक्तुं किमपि प्रमाणं नास्ति. अतः ख्याधातौ नेति केचित् इति वचनम् अनुचितम्. ख्यायादेशे सर्वेषां मते रुत्वं न भवति. ख्याधातौ सर्वेषां मते रुत्वं भवति. अतः ख्याधातौ नेति केचित् इति वचनम् अयुक्तम्. सो वी सेयिङ्ग् द फ्रेज् यूस्ड् बै द प्रीवियस् ग्रन्थकर्ता सेयिङ्ग् ख्याधातौ नेति केचित् इति यदुच्यते तत् अनुचितम्. ख्यायादेशे न भवति, स्वतन्त्रस्य धातोः प्रयोगे भवति इति सिद्धान्तः. Any questions? So for this question in the test, what are the different points to be covered? One is, what is the prayodata? Khyayadeshe na. What is the prasakti? Is punkhyanam. Tena punkhyanam ityatra rupam na bhavati. Then the second question, the kshadi, the thing about the kshakar, the adesha being kshadi. Bhashe ki mutchate, tasya kim prayojanam. Kimartham khyayadesha kshadi hi mutchate, tasya kim prayojanam. The third section, differentiation between the khyayadesha and the khya pratatane independent dhatu. What is the difference between the two? And where do we find rutva, where do we don't find rutva? Yeah, these are all the points to be covered for that question. Any questions so far? With regard to Chaya Nisha? Any other questions in the Halsandhi Prakarana? Anything else which needs to be revised or repeated? We'll start with the Visarga Sanskrit Prakarana in the next class. Jayam Jayam Param Brahmasmayam Smaram Guru Virah Siddhanta Komudi Vyakhyam Kurmah Pravahamano Ramah.